एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। त्रिदिवसीय भ्रमणस्य क्रमे भारतदेशस्य राजधान्यं दिल्लीस्थानं प्राप्तः प्रधानमन्त्रिणा शेरवाद्देवाभिधेन सह भारतस्य विदेशमन्त्री सुब्रह्मण्यम् जयशंकर ह्यो मेलवार्ताम् अकरोत्। प्रधानमन्त्रिणा देवाभिधेन भारतीय जनता पार्टी दलस्य अध्यक्षेण जेपी नड्डा इत्यनेन सह अपि ह्य मेलवार्ता विहिता आसीत्। नेपाली कांग्रेस दलस्य भारतीय जनता दलस्य च सम्बन्धस्य विषयेऽपि एतयोर्मध्ये वार्ता विहितेति विमर्शने सहभागिना परराष्ट्र मन्त्रिणा डाक्टर नारायण खड्काभिधेन ज्ञापितं वर्तते। प्रधानमन्त्रिणा सह तदीय पत्नी आर्जु राणा देउवा, परराष्ट्र मन्त्री नारायण खड्का, ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषालः, स्वास्थ्य जनसंख्या मन्त्री विरोध खतिवडा, कृषि पशुपक्षी विकास मन्त्री महेन्द्र राय यादवश्च आसन्। भारतस्य कृते नेपालस्य राजदूतेन शंकर प्रसाद शर्मणा तत्रत्य दूतावासे आयोजिते स्वागत समारोहेऽपि प्रधानमन्त्री देउवा सहभागी अभवदिति राजदूतावासेन ज्ञापितं वर्तते। अद्य हैदराबाद भवनवर्तिनी भारतस्य प्रधानमन्त्री कार्यालये प्रधानमन्त्रिणा देवाभिधेन स्वसमकक्षिणा नरेन्द्र दामोदर दास मोदिना सह प्रतिनिधिमण्डलस्तरीय वार्तायाः कार्यक्रमो वर्तते। प्रधानमन्त्रिणा मोदिना स्वसमकक्षिणा सम्माने दिवाभोजश्च आयोजितोऽस्ति। वार्तायाः अनन्तरं जयनगर कुर्ता रेलसेवायाः भारत सर्वकारस्य सहयोगेन निर्मितस्य सोलु तटीय प्रसारण प्रणाल्याश्च शुभारम्भस्य नेपाले निर्माणाधीनानां स्वास्थ्य सेवा केन्द्राणां प्रगतिर्विषये द्वाव्यं प्रधानमन्त्रिणां बोधनस्य च कार्यक्रमः निर्धारितोऽस्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा कार्यवाहक प्रधानमन्त्रीपदे गृहमन्त्री बालकृष्ण खाँड नियुक्तो वर्तते। संविधानस्य नियमानुसारेण प्रधानमन्त्रिणा शेरवाद्देवाभिधस्य अनुपस्थितौ प्राशासनिक कार्याणां निर्वहणत्वेन गृहमन्त्री खाँड कार्यवाहक प्रधानमन्त्रीपदे नियुक्ता इति राष्ट्रपति कार्यालयेन प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की कथयति प्रधानमन्त्रिणः शेरवाद्देवाभिधस्य भारत भ्रमणं राष्ट्रस्य हिते केन्द्रितं भवति। मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने मन्त्री कार्की अभाषत नेपाल भारतयोः युगेभ्यः स्थितः सम्बन्धः प्रधानमन्त्रिणः भ्रमणेन अतिरिक्तोच्चतायं प्राप्स्यते। मन्त्रिपरिषदः परह्यस्तनोपवेशेन अरुण तृतीय जल विद्युदायोजनायाः प्राप्तिमार्गस्य अन्तर्गतस्य छ्याङ्कुटी दिदिङ खण्डस्य भूमेः अवशिष्ट मूल्यस्य वितरणाय निर्णीतमिति मन्त्री कार्की ज्ञापितवान्। उपवेशेन राष्ट्रिय भूमि आयोग संघटनादेशस्य अनुसारेण त्रयश्चत्वारिंशति जनपदेषु अध्यक्षाः नियुक्ताः सन्ति। एवमेव उपवेशेन आयोजनानां बहुवर्षीयानुबन्धनेन सम्बन्ध द्वितीय संशोधन मापदण्डाः स्वीकृताः सन्ति। मन्त्रिपरिषदः उपवेशेन विश्वकोशस्य अन्तर्राष्ट्रिय मुद्राकोशस्य च वसन्तकालीन संयुक्तोपवेशे नेपालस्य सहभागितायै अर्थमन्त्रिणः नेतृत्वे प्रतिनिधिमण्डलं संघटयितुं नेपाल कम्बोडिया देशयोः टीफा काउन्सिल संस्थायाः प्रथमोपवेशं सर्वदेश प्रविधेर माध्यमेन आयोजयितुं च निर्णीतमस्ति। काष्ठमण्डपो उपत्यकायां ह्य अश्वयात्रोत्सवः आयोजितोऽस्ति। राष्ट्रपतेः विद्यादेवी भण्डारिणः प्रमुखातिथ्ये काष्ठमण्डपस्य टुडिखेलस्थाने सम्पन्ने अश्वयात्रा समारोहे उपराष्ट्रपतेः कार्यवाहक प्रधानमन्त्रिणः प्रधान न्यायाधीशस्य सभामुखस्य राष्ट्रियसभायाः अध्यक्षस्य प्रधानमन्त्रिणां प्रधान सेनापतेः नेपाल सर्वकारस्य सचिवानां च समुपस्थितिः आसीत्। तदवसरे राष्ट्रपतिना भण्डारिणा उपसेनानी श्रीवत्स सिल्वालः, सहसेनानी प्रवीण लाबिन्छाने, लीलाराम खड्का, सुभूषण कुमार श्रेष्ठश्च पुरस्कृताः आसन्। प्रतिवर्षं चैत्र कृष्णामावस्यां तिथौ काष्ठमण्डपस्य टुडिखेलस्थाने अश्वयात्रा समारोह आयोज्यमानो वर्तते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति एमाले दलेन देशस्य सार्वभौम सत्तया स्वाधीनतया संविधानस्य क्रियान्वयनेन च सह विकास सुशासनयोः यात्रायाः अग्रे वर्धापनस्य लक्ष्यं स्वीकृतम् इत्यतः एमाले दलस्य पक्षे देशव्यापिनी जनलहरी दृष्टा वर्तते। राष्ट्रिय जनसांस्कृतिक महासंघ नेपालस्य अष्टमं राष्ट्रिय महाधिवेशनम् ह्यः उद्घाटयन् अध्यक्ष ओली कस्यापि पदस्य प्राप्तये धावनस्य अपेक्षयापि सामूहिक भावनया सहकार्येण सचेष्टतया च देश निर्माणस्य मार्गे सर्वैः प्रवर्तनीयमिति धारणाम् उपस्थापयत्। नेकपा एकीकृत समाजवादी दलस्य नेता झलनाथ खनालः कथयति राष्ट्रस्य विकासाय समृद्धये च आसन्न निर्वाचने क्षमतावत नेतृत्वं प्रचितव्यम्। ह्य काष्ठमण्डपे आयोजिते साहित्यिक कार्यक्रमे नेता खनालः निर्वाचने लोकतान्त्रिक दलस्य स्वच्छ चरित्राणां व्यक्तिनां निर्वाचनाय सर्वान् अन्वरुणात्। प्रधानमन्त्रिणा नेपाली कांग्रेस दलस्य सभापतिना च शेरबहादुर देवाभिदेन दलस्य उपसभापति पूर्णबहादुर खड्का कार्यवाहक सभापति पदे नियुक्तो वर्तते। नेपाली कांग्रेस दलस्य विधानस्य अनुसारेण भारत देशस्य भ्रमणस्य क्रमे रिक्ते सभापति पदे दिवस त्रयाय पूर्णबहादुर खड्का नियुक्तो वर्तते इति दल कार्यालयस्य मुख्य सचिव कृष्ण प्रसाद पौडेलः ज्ञापयति। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की विराटनगर महानगरपालिकाया चतुर्थ वडा क्षेत्रस्य खार्जीस्थाने निर्मितं तारिणी प्रसाद संचार ग्राम भवनम् ह्यः उद्घाटयत्। रेडियो नेपालस्य विराटनगर महानगरपालिकायाश्च सहयोगेन निर्मितं संचार ग्राम भवनमेतद् उद्घाटयन् संचार मन्त्री कार्की अगदत् संचार भवनस्य संचालनेन संचार क्षेत्रस्य कला संस्कृति साहित्यानां संचारस्य विकासे च सहयोगः प्राप्स्यते। कार्यक्रमे प्रथम प्रदेशस्य मुख्यमन्त्री राजेन्द्र कुमार राई संचार ग्रामस्य विकासाय संचालनाय च प्रदेश सर्वकारस्य नैरन्तर्येण सहयोगो भवतीति प्रतिबद्धताम् अभिव्यनक। संचार सूचना प्रविधि मन्त्रालयस्य सचिव डाक्टर वैकुण्ठ अरियालः संचार ग्रामस्य शुभारम्भं प्रति सुखं प्रकटयन् अभासत संचार ग्रामस्य विकासे सर्वैः प्रवर्तनीयम्। तदवसरे रेडियो नेपालस्य कार्यकारी निर्देशकः बुद्धिबहादुर केसी संचार ग्रामस्य उद्देश्यं प्रकाशयन् अवोचत् संचार ग्रामस्य संचालनस्य कार्यं सुखप्रद विषयो वर्तते। कार्यक्रमे नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य डाक्टर मिनेन्द्र रिजालः अवोचत् संचार ग्राम निर्माणस्य स्वस्य स्वप्न अधुना पूरितोऽस्ति। नेपाली कांग्रेस दलस्य नेता प्रकाशमान सिंह कथयति आगामिनि स्थानीय स्तराणां निर्वाचने आवश्यकताया आधारेण गठबन्धनम् विधास्यते। नेपाली कांग्रेस दलस्य काष्ठमण्डपस्य प्रथम नैर्वाचनिक क्षेत्रेण आयोजिते प्रतिगृहम् गच्छामा कांग्रेस दलम् जापयाम इति कार्यक्रमे नेता सिंह अकथयत् संविधानस्य रक्षायै गठबन्धनम् संरक्षणीयम्। राप्रपा नाम्नः राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन कथयति आगामिनि स्थानीय स्तराणां निर्वाचने गठबन्धनाय केनापि दलेन वार्ता नैव विहिता अस्ति। ह्यो जनकपुर विमानस्थले संचारकर्मीभिः भाषमाणः अध्यक्ष लिङ्गदेन अवदत् आवश्यकतायाः आधारेण विभिन्नैः दलैः सह नैर्वाचनिक गठबन्धनम् भवितुम् शक्नोति। ह्य आराष्ट्रम् अतिरिक्तेषु द्वाविंशत्यां जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। ह्य अतिरिक्ताः पञ्चसप्ततिर्जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। ह्य आराष्ट्रम् अतिरिक्तैः ऊनपञ्चाशत्सहस्रैः त्रिचत्वारिंशदुत्तर पञ्चशतेन च जनैः कोरोना प्रतिरोधी टीकाकरणं गृहीतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति।